इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। द्विपञ्चाशत् दिवसात्मकस्याः श्री अमरनाथ यात्रायाः पवित्र गुहा मन्दिरस्य वार्षिकी तीर्थयात्रा अद्य प्रातः सुदृढ व्यवस्था मध्ये कश्मीरोपत्यकायां पहलगाम बालटाल मार्गाभ्यां समारब्धा। इयं पवित्रा यात्रा अगस्तमासस्य नवदश दिनांके श्रावण पूर्णिमायाः शुभावसरे पूर्णतां प्राप्स्यति। केन्द्रशासित प्रदेशे एतस्मिन् यात्राम् अभिलक्ष्य प्रशासनेन संचालन व्यवस्थां सुनिश्चेतुं सुरक्षायाः व्यापक प्रबन्धनं स्थापितं सुनियोजितं च। प्रधानमन्त्री नरेन्द्रमोदी आकाशवाण्याः मन की बात इत्यस्मिन् कार्यक्रमे श्वः देशवासिभिः साकं विचार विनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं एकादशाधिकैक संस्करणं भविष्यति। अस्य कार्यक्रमस्य प्रसारणम् आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारयिष्यति। अयं कार्यक्रमः आकाशवाणी, दूरदर्शन, प्रधानमन्त्री कार्यालय, सूचना प्रसारण मन्त्रालय इत्येतेषां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते। प्रधानमन्त्रिणः सम्बोधनानन्तरम् अनुक्षणम् अयं कार्यक्रमः क्षेत्रीय भाषास्वपि श्रोतुं शक्यते। राष्ट्रिय परीक्षाभिकरणेन एनटीए इत्याख्येन ह्यः सीएसआईआर, यूजीसी नेट, यूजीसी नेट चेत्यादीनां परीक्षाणां तिथयः पुनः समुद्घोषिताः। एकस्मिन् प्रख्यापिते पत्रे एनटीए इत्यनेन समुद्घोषितं यत् एनसीईटी इत्यस्य परीक्षा जुलाई मासस्य दशमे दिनांके, यूजीसी नेट इत्यस्य परीक्षा सम्प्रति अगस्त मासस्य एकविंशति दिनांकतः सितम्बर मासस्य चतुर्थ दिनांक पर्यन्तम् इत्यनयोः दिनांकयोः मध्ये आयोजयिष्यति। नीट परीक्षायां कथित अनियमिततायाः विषये विपक्षीदलानां विरोधस्य कारणेन लोकसभा आदिवसं स्थगिता जाता। प्रथमस्थगनस्य अनन्तरं यदा मध्याह्ने द्वादशवादने ह्यः लोकसभायाः कार्याचरणं समारब्धं तदा कांग्रेसदलस्य सदस्याः अस्मिन् विषये शिक्षामन्त्रिणः धर्मेन्द्रप्रधानस्य त्यागपत्रस्य याचनां कुर्वन्तः उच्चैः उद्घोषितुम् असमारब्धवन्तः। कांग्रेस, डीएमके, टीएमसी, समाजवादी पार्टी चेत्यादीनां सांसदाः सदनमध्ये समागतवन्तः। लोकसभायाः अध्यक्षः ओम बिरला इत्यनेन उक्तं यत् अस्य विषयस्य विचारार्थं एका समितिः निर्मिता अस्ति। राष्ट्रपती द्रौपदी मुर्मू वर्यायाः अभिभाषणे धन्यवाद प्रस्तावस्य विषये चर्चा ह्यः राज्यसभायां नीट प्रकरणे विपक्षस्य कोलाहलस्य मध्ये समारब्धा। चर्चायै एकविंशति होरायाः समयः एव निर्धारितः आसीत्। चर्चायाः आरम्भं कुर्वन् भाजपादलस्य सांसदः सुधांशु त्रिवेदी विगत दशवर्षेषु नरेन्द्र मोदी सर्वकारस्य सफलतायाः उल्लेखं कृतवान्। चर्चायां भाजपादलस्य सांसदाः कविता पाटीदारः, कृष्णलाल पवारः, डॉ भीमसिंहः, अनिल बोण्डेः चेत्यादयः अपि भागं गृहीतवन्तः। अपि च क्रिकेट प्रतिस्पर्धायां पुरुषाणां विंशतिः प्रतिविंशतिः क्रिकेट विश्वचषक प्रतिस्पर्धायाः भारत दक्षिणाफ्रीकादलम् अद्य सायं बार्बाडोस इत्यत्र अन्तिमचक्रके द्वन्द्वे सम्मुखीकरिष्यति। इतः पूर्वं भारतेन उपान्त्यचक्रके द्वन्द्वे इंग्लैण्डदलम् अष्टषष्टिः धावनांकैः पराजितम्। झारखण्ड उच्चन्यायालयः राज्यस्य पूर्व मुख्यमन्त्रिणे ह्यः हेमन्तसोरेनाय भूमि प्रवञ्चन प्रकरणेन सम्पृक्ते धनशोधन प्रकरणे कारावासात् मुक्तिः प्रायच्छत्।